यस्तानोररुणाचलस्य पदयो श्रुत्या जनिं प्राप्यत दिव्यानुग्रह सुप्रवाह विवशस्तादात्म्यभावङ्गतः हृन्नीष्टः स्वगभीरनित्य तपसा लोकान् पुनास्येकरात् तस्मै श्रीरमणाय ते नम इदं लोकोत्तरज्योतिषे।